इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः दिव्यानन्द झा। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी केन्द्रीयाय व्यय संकल्प पत्रस्य प्रस्तुतेः प्राक् नीत्यायोगस्य भवने प्रमुखैः अर्थशास्त्रिभिः सह उपवेशनम् अकरोत्। उपवेशनेऽस्मिन् वित्तमन्त्री निर्मला सीतारमणः, नीत्यायोगस्य उपाध्यक्षा सुमन बेरी, प्रधानमन्त्रिणः प्रमुख सचिवः पीके मिश्रः, वरिष्ठाः अर्थशास्त्रिणः, कतिपयाः अर्थशास्त्र विशेषज्ञाश्च समुपस्थिताः आसन्। संसदः आयव्यय पत्रक सत्रं जुलाई मासस्य द्वाविंशति दिनांकतः समारभते। ततः आगामि दिवसे वित्तमन्त्री निर्मला सीतारमणः लोकसभायाम् अस्य सत्रस्य केन्द्रीयम् आयव्यय संकल्पपत्रं प्रस्तोष्यति। ध्यातव्यं यत् नरेन्द्र मोदिनः तृतीय कार्यकालस्य इदं प्रथमं वित्त संकल्पनापत्रं भविष्यति। विदेशमन्त्री डॉ सुब्रह्मण्यम जयशंकरः उक्तवान् यत् भारताय बिम्स्टेक तस्य प्रतिवेशि प्रथमः, एक्ट ईस्ट सागर चेत्येतेषां संकल्पानां प्रतिनिधित्वं करोति। डॉ जयशंकरः ह्यः नवदिल्ल्यां बंगाल खातिः इति विषयं केन्द्रीकृत्य आयोजिते द्वितीये सम्मेलने बहुक्षेत्रीय प्राविधिक्यार्थिक सहयोगाय प्रतिबद्धानां विदेशमन्त्रिणाम् उपवेशने भाषमाणः आसीत्। सः उक्तवान् यत् प्रत्येकं प्रयासः बंगाल खातिः इत्यस्मिन् विषये अवधातुं क्रियते, यत्र सहयोगात्मक क्षमता चिरकालात् अप्राप्या वर्तते। डॉ जयशंकरः पुनः अकथयत् यत् विदेशमन्त्रिणां सन्देशः स्पष्टः स्यात् यत् ते सर्वे अपि बंगालखातिक्षेत्रस्य देशानां मध्ये नवोर्जाये नवसंसाधनाय सहयोगाय च प्रतिबद्धाः स्युः। सः उक्तवान् यत् अस्माकं समक्षं क्षमता निर्माणार्थिक सहयोग सदृशानि दीर्घकालिक लक्ष्याणि सन्ति। डॉ जयशंकरः इदमपि अकथयत् यत् रिट्रीट इत्यस्य प्रथमे भागे सम्पर्क संस्था निर्माण व्यापार व्यवसायान्तरिक्ष सहयोग स्वास्थ्याधारभूत संरचना क्षमता निर्माणे इत्यादिषु विषयेषु चर्चा करिष्यते। केन्द्रीयः स्वास्थ्यमन्त्री जगत प्रकाश नड्डा इत्यनेन विश्व जनसंख्या दिवसावसरे ह्यः नवदिल्ल्यां परिवार नियोजनाय सुगम प्रतिदर्शस्य अनावरणं कृतम्। विभिन्न राज्यानां स्वास्थ्य परिवार कल्याण विभागैः सह आकारिते एकस्मिन् आभासीयोपवेशने श्री नड्डा प्रोक्तवान् यत् अद्य भारते परिवार नियोजनस्य भूत वर्तमान भविष्यत् कालम् आलक्ष्य आत्मनिरीक्षणावसरः अस्ति। सः प्रोक्तवान् यत् आगामि रणनीतयः राष्ट्रिय परिवार स्वास्थ्य सर्वेक्षणस्य सूचकांकैः सह प्रतिस्थापनीयाः, अपि च उच्च जनसंख्या समन्वितेषु राज्येषु विशिष्टं ध्यानं दातव्यम्। सर्वोच्च न्यायालयेन नीट स्नातक परीक्षा प्रकरणे न्यायिक श्रवण प्रक्रिया अस्य मासस्य अष्टादश दिनांकं यावत् स्थगितीकृता। भारतस्य मुख्य न्यायाधीशस्य डीवाई चन्द्रचूडस्य अध्यक्षतायां पीठेन केन्द्र सर्वकारेण एनटीए इत्यभिकरणेन च न्यायालये प्रख्यापिते प्रत्युत्तरे विपक्षिदलानां प्रतिक्रियायै एतत् स्थगनं कृतमस्ति। अवधेयं शीर्षन्यायालये ह्यः विवादास्पदं नीट स्नातक प्रवेश परीक्षया सम्पृक्तासु याचिकासु श्रवण प्रक्रिया सुनिश्चितासीत्। एतासु मई मासस्य पञ्चमे दिनांके जातायां परीक्षायां अनियमितता कदाचारयोः आरोपं प्रतिपादयन्त्यः पुनः परीक्षायाः याचिकाः सम्मिलिताः आसन्। बुधवासरे प्रस्तुते एकस्मिन् प्रतिवेदने केन्द्रेण उक्तं यत् सर्वोच्च न्यायालयस्य निर्देशानुसारं शिक्षा मन्त्रालयेन नीट स्नातक परीक्षायाः परिणामस्य व्यापक विश्लेषणाय आईआईटी मद्रास सम्प्रार्थितः वर्तते। भूरिशः वृष्ट्या उत्तरप्रदेशस्य कतिपयाः भागाः जलमग्नाः सन्ति। जलाप्लावनात् रक्षणाय आपदुद्धाराभियाने सेना समाकलितास्ति। वार्ताः।